हेलो।
हेलो,
हेलो।
अबे तेरे स्टेल में बैठ बैठ।
हाँ यस यू नो हाँ इस पे वन इस पे सर। हाँ
हेलो,
हेलो।
शुमनाल खाई?
हाँ
हेलो,
हाँ
मिनाल खाई?
सलाम ना
सलाम ना बंदे ना
ये
मिन्नत दर मिन्नत दाक।
मेरे बस तबीयत खफल दिख ना और मेरा से ये ना मारा यहाँ से नहीं आलाय हो ना
ऐसी मैं ना दर्शी मैं ना स्टेक
हो
रोकना।
कि मैं वो ना बस तबीयत खफल दिख
मैं ना लिखे
वो ना इस बेस पर लिखा।
बीस तबीयत मैं मज़गा फल लगा ना
आओ
ऐसी और लिख बारी कुतरा ना करा हलो।
ऐसी और
टेलीग्राम
दे
कुतरा ना कर खन्ना मालिस ना हो सुलकुन से
हैं
बारगा टेलीग्राम लाइ ቤስት ቤት መመዝገብ ፈልጊ ነው ብለክ ላክልንና እኛ ስቴፑን እንልክላለን። ቁጥሩን ልንገርህ 0903
ቆይ ቆይ ቆይ
እሺ ቁጥሩን ልንገርና ሴቭ አድርገው
እሺ ንገርሽ
እሺ 0903
0903 03
44
44
37
30 ሰላሳ ሰባት እሺ
47
ሰላሳ
47 መጨረሻው 47
ሰላሳ ስንት ነው
መጨረሻው 47
እሺ 47 እሺ
ይኸውልህ ሴቭ ታደርግና ቴሌግራም ላይ ቤተሰብ ለመመዝገብ ፈልጌ ነው ስትል ስቴፑን ይልኩልሃል።
ይሄ ቁጥሩ ነው?
አዎ 0903 ብዬ ነገርኩህ። አዎ ይሄ የቴሌግራም ቁጥር ነው። እሱን ሴቭ አድርግና መመዝገብ ፈልጌ ነው ብለህ ላክልን።
አዎ ይሄ ነው ቴሌግራም ገባ?
ይኸውልህ ይሄ ቁጥር የቢሮ ቁጥር ነው። ቴሌግራም ምገባው አሁን በነገርኩክ ነው። 0903 ቤት ውስጥ ሴቭ አድርገክ ነው መመዝገብ ፈልጌ ነበር የምትለው።
እሺ
እሺ እኮ አሁን ሴቭ አድርገውና ላክልን። በቃ እንልክላለን እዛ ላይ።
እሺ የኔ አሁን ከደወላ እሺ
እ
አሁን ካላሁን ቴሌግራም ከገባና
አዎ ይኸውልህ አሁን ይሄ የደወልክበት የቢሮ ስልክ ነው።
አዎ
አሁን የነገርኩህ ደግሞ 0903 ቤቱ ቴሌግራም ነው። ሴቭ አድርገህ እዛ አዎ እዛ ላይ ቴሌግራም ላይ መመዝገብ ፈልጌ ነው በል። አሁን እኮ ቢነግርህ ካልገባክ ብዬ ነው እንጂ ቤስት ቤት ዶት ቤት ላይ ሰርች ብታደርግ ክሮም ላይም እዛ ላይም ይመጣልሃል። ግን በደንብ እንዲብራራልህ ብዬ ነው።
እሺ እሺ
እሺ